त्रिदशवर्धकिवर्धित कौशलम् त्रिदश दत्त समस्त विभूतिमत् जलधिमध्यगतम् त्वमभूषयः नवपुरम् वपुरम् चितरोचिषा ददुषिरैवत भूभृतिरेवतीम् हलभृते तनयाम् विधिशासनात् महितमुत्सवघोषम् अपूपुषः समुदितैर्मुदितैः सह यादवैः अथ विदर्भसुतां खलु रुक्मिणीं प्रणयिनीं त्वयि देव सहोदरः स्वयमदित्सत चेदिमही भुजे स्वतमसा तमसाधुम् उपाश्रयन् चिरधृतप्रणया त्वयि बालिका सपदि काङ्क्षितभङ्गसमाकुला तव निवेदयितुं द्विजमादिशत् स्वकदनं कदनङ्गविनिर्मितम् द्विजसुतोऽपि चतूर्णमुपाययौ तव पुरं हि दुराशदुरासदं मुदमवाप च सादरपूजितः स भवता भवतापहृता स्वयं स च भवन्तम् अवोचत कुण्डिने नृपसुता खलु राजतिरुक्मिणी त्वयि समुत्सुकया निजधीरता रहितया हितया प्रहितोऽस्म्यहं तव हृतास्मि पुरैव गुणैरहं हरति मां किल चेदि नृपोऽधुना अयि कृपालय पालय माम् अयि कृपालय पालय माम् इति प्रजगते जगदेकपते तया अशरणां यदि मां त्वमुपेक्षसे सपति जीवितमेव जहाम्यहम् इति गिरासुतनोः अतनोद्भृशं सुहृदयं हृदयं तव कातरम् अकथयः त्वमथैनमये सखे तदधिका मम मन्मथवेदना नृपसमक्षमुपेत्य हराम्यहं तदयितां दयिताम् असिते क्षणां प्रमुदितेन च तेन समं तदा रथगतो लघुकुण्डिन मे इवान् गुरुमरुत्पुरनायक मे भवान् वितनुतां तनुतां निखिलापदाम् ओं तत्सदिति श्रीमन्नारायणीये अष्टसप्ततितमं दशकं समाप्तं श्रीहरये नमः रमा रमणगोविन्दा गोविन्दा श्रीकृष्णार्पणमस्तु।